एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। अद्य देशस्य पर्वतीय क्षेत्रेषु हिमालयीय क्षेत्रेषु च वृष्टेः हिमपातस्य च सम्भावना अस्तीति जलवायु वातावरण विभागेन ज्ञापितम् वर्तते। पश्चिम जलवायु प्रणाल्याः कारणेन देशस्य अधिकेषु स्थानेषु गगनम् मेघाच्छन्नम् भवतीति विभागेन ज्ञापितमस्ति। पश्चिमवातस्य प्रभावः अद्य श्वश्च भवतीत्यतः वृष्टेः सम्भावना वर्तते इति विभागेन ज्ञापितम् वर्तते। प्रतिकूलस्य वातावरणस्य कारणेन योऽपि वायुसेवा प्रभाविता आसीत्। काभ्रेपलाञ्चोक जनपदस्य पाँचखाला नगरे निर्मीयमाणायाः आसन्न सार्धैकाब्ज रूप्यकाणां व्ययस्य बृहत् पाँचखाला सुनकोशी पेयजलायोजनायाः निर्माणकार्यम् अन्तिमचरणे प्राप्तमस्ति। निर्माणाधीन पेयजलायोजनायाः भौतिकपक्षस्य आसन्न 95% कार्यम् सम्पन्नमस्तीति आयोजनया ज्ञापितम् वर्तते। पाँचखालनगरस्य 6,000 परिवाराणाम् गृहेषु आगामिनः माघमासस्य अन्तम् यावत् जलम् प्राप्स्यतीति आयोजनया ज्ञापितम् वर्तते। प्रधानमन्त्री नेकपा एमाले दलस्याध्यक्षस्य केपी शर्मा ओली निगदति देशभक्तानां प्रगतिशीलानां जनवादी शक्तीनां च सुदृढीभवनानन्तरं देशस्य प्रतिक्रियावादिनः आतंकिताः वर्तन्ते। च्यासलवर्तिनी दलस्य केन्द्रीय कार्यालये प्रारब्धस्य एमाले दलस्य केन्द्रीय समितेः अष्टमे उपवेशे ह्यो राजनीतिकेषु सामयिकेषु च विषयेषु सम्बोधनं विदधानः अध्यक्षः ओली प्रतिक्रियावादिनः एमाले दलस्य विरुद्धे एकीभूताः सन्तीति अभाषत। नवीनस्य सर्वकारस्य संघटनानन्तरं राजनीतिक स्थायित्वस्य सन्देशः प्रवाहितोऽस्ति। संयुक्त नीतिगता प्रतिबद्धता संकल्पश्च व्यक्तौ स्तः। अर्थतन्त्र सुधार सम्भूतोऽस्तीति च अध्यक्षः ओली उदैरयत्। उपवेशे अध्यक्षेण ओलिना प्रस्तुते 43 पृष्ठात्मके राजनीतिक प्रतिवेदने एमाले नेपाली कांग्रेस दलयोः गठबन्धनस्य आवश्यकता औचित्यम् नेपालस्य परराष्ट्रनीतिः उपनिर्वाचनस्य समीक्षा चेत्याद्यः विषयाः समाविष्टाः वर्तन्ते। ह्यस्तनात् दिवसात् प्रारब्धः उपवेशः अद्यावधि प्रचलति। उपवेशस्य पूरणस्य अभावे श्वः अपि उपवेशः सम्भवतीति महासचिवः शंकर पोखरेलः अज्ञापयत्। नेकपा माओवादी केन्द्रस्य केन्द्रीय समितेः पूर्णोपवेशः ह्यस्तनात् दिवसात् प्रारब्धो वर्तते। काष्ठमण्डपस्य धूम्रवाराहि स्थाने उपविष्टस्य माओवादी केन्द्रस्य केन्द्रीय समितेः उपवेशस्य प्रथमे दिवसे ह्यः दलाध्यक्षः पुष्पकमल दाहाल प्रचण्डः पश्चात्तन राजनीतिक विषये अवबोधयन् दलस्य सांघटनिक सुधाराय जनतायां गमनस्य प्रस्तावं प्रस्तुतवान्। उपवेशे अध्यक्षः प्रचण्डः जनतायां गमनस्य अभियानान्तर्गतं सहायक राजमार्गे पूर्व पश्चिम राजमार्गे च केन्द्रितस्य अभियानस्य संचालनाय प्रस्तावं प्रस्तुतवानस्तीति उपवेशस्य अनन्तरं माओवादी केन्द्रस्य प्रवक्ता च उपाध्यक्ष अग्निप्रसाद सापकोटा असूचयत्। एतत्पूर्वम् उपवेशे दलस्य प्रदेश समितिनां पक्षतः प्रदेशानाम् अध्यक्षः इन्चार्ज पदीयाश्च सम्बद्धानां प्रदेशानां स्थलगत विवरणं प्रस्तुतवन्तः आसन्। माओवादी केन्द्रस्य केन्द्रीय समितेः पूर्णोपवेशः अद्य प्रातः 11 पुनः वसति। राष्ट्रिय स्वतन्त्र दलेन संविधाने आवश्यक संशोधनस्य विषयं दृष्टिगतं विधाय संविधान परिमार्जन परामर्श कार्यदलं संघटितमस्ति। दलस्य प्रमुख सचेतक पदीयस्य सन्तोष परियारे इत्यस्य संयोजकत्वे कार्यदलमिदं संघटितमस्तीति दलस्य कार्यवाहक प्रवक्ता मनीष झा असूचयत्। कार्यदलेन सप्तषु एव प्रदेशेषु आवश्यकं विमर्शनं विधीयते। सर्वैः सम्बद्धैः जनैः संविधानविद्भिश्च सह विमृश्य दलस्य धारणा सार्वजनिकी करिष्यते इति च कार्यवाहक प्रवक्ता झा अज्ञापयत्। गताश्विन मासस्य द्वितीय सप्ताहस्य जलविप्लव भूस्खलनानां कारणेन क्षतिग्रस्तस्य बीपी राजमार्गस्य विभिन्न मार्गखण्डानां संभार कार्याय पुनर्निर्माण कार्याय च आसन्न नवाब्जानी 67 कोटयश्च रूप्यकाणि अपेक्ष्यन्ते। भक्तपुर मार्ग महाशाखा कार्यालयस्य अनुसारेण बीपी राजमार्गस्य अन्तर्गतम् भकुण्डे विशेष थानात् नेपालथोकस्थान पर्यन्तस्य विभिन्नेषु स्थलेषु पुनर्निर्माण कार्याय यथावन्ति रूपकाणि अपेक्ष्यन्ते इति अध्ययनेन दर्शितम् वर्तते। राजमार्गस्य अन्तर्गतम् काभ्रेपलाञ्चोक जनपदस्य नमुम् बुद्धवर्तिनः चौकीडाँडा स्थानात् रोशी ग्रामपालिकायाः कालढुङ्गा स्थानम् यावत् द्वादश किलोमीटर मिते मार्गे अष्ट किलोमीटर मितः मार्गः पूर्णरूपेण क्षतिग्रस्तो वर्तते। शिक्षा विज्ञान प्रविधि मन्त्रिणः विद्या भट्टराई इत्यस्याः समक्षम् नेपाल संस्कृत विश्वविद्यालयस्य भूसम्पद अन्वेषण समित्या प्रतिवेदनम् प्रस्तुतमस्ति। मन्त्रिणः भट्टराई इत्यस्याः समक्षम् उच्च न्यायालयस्य पूर्व न्यायाधीशेन शेखर प्रसाद पौडेलेन ह्य शिक्षा मन्त्रालये प्रतिवेदनमिदम् प्रस्तुतमस्ति। तदवसरे मन्त्री भट्टराई प्रतिवेदनस्य क्रियान्वयनाय सम्बद्धानां स्थानीयजनानां राजनैतिक नेतृणां विश्वविद्यालयस्य च सक्रिया भूमिका आवश्यकी भवति इति चर्चयन्ति। प्रतिवेदनमिदं विश्वविद्यालयस्य कुलपतेश्च प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं प्रस्तुष्यते इति असूचयत्। समित्या नेपाल संस्कृत विश्वविद्यालयस्य दाङ जनपदस्य विभिन्नेषु स्थानेषु विद्यमानायाः भूमेः भौतिक पूर्वाधारस्य च स्थलगतम् अवलोकनं विधाय विश्वविद्यालयस्य पदाधिकारिभिः कर्मचारिभिश्च सह विमृश्य विभिन्नानां निकायानां समन्वयमाधृत्य च आवश्यक सूचनां संकलय प्रतिवेदनमिदं निर्मितमस्ति। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति मानवसेवायाः उपरि कोऽपि धर्मो नास्ति। मानवसेवाश्रमस्य वृत्तचित्र प्रस्तुति सम्बद्धम् कार्यक्रमम् पूर्वेद्युः सम्बोधयन् राष्ट्रपतिः पौडेलः मानवसेवारूपेण सत्कारेण जीवनम् सार्थकम् विधीयते, अतः जीवनपद्धतिरूपेण एषा मानवसेवा आत्मसात् करणीया इति प्रावोचत्। मानवतायाः नैतिकतायाश्च संकोचनस्यावस्थायां सम्प्रति अस्माकं समाजं सद्मार्गे संचालयितुं मानवसेवा प्रेरणां ददाति इति विश्वासं व्यक्तवान्। प्रतिनिधिसभायाः सभामुखः देवराज घिमिरे कथयति पठनसंस्कृत्या व्यक्तेः चेतनायाः बौद्धिकतायाः सूचनायाः ज्ञानस्य च विकासो भवति। ह्यः भ्रिकुटीमण्डपे आयोजितायाः द्वितीय दक्षिणैशयिकान्तरराष्ट्रिय पुस्तक प्रदर्शन्याः समापन समारोहे सभामुखः घिमिरे पठन संस्कृत्या ज्ञानार्जनं भवतीत्यतः पुस्तक प्रदर्शनी कार्यक्रमाय सहयोगं विधातुं सर्वकारं परामृशत्। गृहमन्त्री रमेश लेखकः निगदति भूकम्पात् भूस्खलनात् च क्षतिग्रस्तानां भौतिक संरचनानां पुनर्निर्माणं तीव्रगत्या अग्रेसारितमस्ति। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणस्य ह्यस्तनोपवेश्य गृहमन्त्री लेखकः भूकम्पेन भूस्खलनेन च विहितायाः क्षतेः मूल्यांकनस्य कार्यं प्रारप्स्यते, विहित मूल्यांकनेषु स्थानेषु पुनर्निर्माण कार्यम् अग्रे वर्धयितुं च उपवेशेन निर्णीतमस्ति इति अभासत। बुद्धस्य जन्मस्थले लुम्बिन्यां पर्यटकानाम् आगमनम् उल्लेखनीय रूपेण वर्धितमस्ति। लुम्बिनी विकास कोषस्य अनुसारेण गत ख्रीष्टवर्षे समग्रतः 11,270,043 पर्यटकाः लुम्बिनी भ्रमणाय आगताः सन्ति इति समाचारः।